चतुर्दशोऽध्यायः। दिने दिने बाला वने पुष्पाण्यचिन्वत, नरा वाचो मनसा बोधन्ति, गुरुश्चक्षुषा ज्योतिषां गमनं पश्यति, वाचिका फलानि चिनोति रसीकुरुते च। अद्य वनलब्धाः समिधोऽग्नी भवन्ति, रात्रौ स्वर्गे चक्षुर्भ्यां बहूनि ज्योतींषि दृश्यन्ते। राजा दिशो दृष्टात्मनो धनुस्तनुते, सेवका आहारं पक्तुं व्यस्मरन्, नारी फलेभ्यो रसं सुन्वन्तं सेवकं दृष्टवान्।